एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेपाली कांग्रेस दलस्य असन्तुष्ट पक्षस्य जनपद सभापतीनाम् मेलनम् गतदिने दलस्य केन्द्रीय कार्यालय सानेपास्थाने ललितपुरे प्रारब्धम् वर्तते। मेलने नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः, महामन्त्री डाक्टर शशांक कोइराला, नेतारः प्रकाशमान सिंह, रामशरण महत, अर्जुन नरसिंह केसी, गगन थापा, हृदयराम थानी च सहभागिनः आसन्। मेलने जनपद सभापतयः दलं विधान सम्मत रूपेण चालयितुं बलम् अददुः। असन्तुष्ट पक्षस्य सभापतयः दल नेतृत्वेन अन्यैः नेतृभिश्च विगतकालस्य त्रुटिः संशोध्य अग्रे वर्धितव्यमिति प्रावोच्चन्निति मेलने सहभागी नेपाली कांग्रेस दलस्य सुर्खेत जनपद सभापतिः कमलराज रेग्मी अज्ञापयत्। मेलने अद्य दल नेतृत्वाय अर्पणीयानाम् परामर्शानाम् विषय विमृश्यते। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य अध्यक्षस्य पुष्पकमल दाहाल प्रचण्डस्य प्रमुख प्रतिपक्षिणो नेपाली कांग्रेस दलस्य सभापतेः शेरबहादुर देउवाभिधस्य च मध्ये शान्ति प्रक्रियायाः अवशिष्ट कार्याणाम् पूर्णता प्रदानार्थं विमृष्टम् वर्तते। सभापतिना देउवाभिधेन सह विमृष्टम् नेकपा दलस्य अध्यक्ष प्रचण्डः महासचिवः विष्णुप्रसाद पौडेलश्च गतदिने बुढा नीलकण्ठ स्थिते देउवा निवासे प्राप्तवास्ताम्। शीर्षद्वय नेतृत्वस्य सामयिक राजनीतिक विषय विमर्शनस्य अनुपदमेव अध्यक्षस्य दाहालस्य प्रधानमन्त्रिणः केपी शर्मा ओलिनश्च मध्येऽपि विमृष्टम् आसीत्। संघीय संसदः राष्ट्रिय सम्बद्धता समन्वय समित्या निर्धारित समय एव पुनर्निर्माणस्य अवशिष्ट कार्याणाम् पूरणाय राष्ट्रिय पुनर्निर्माण प्राधिकरणम् निर्दिष्टम् वर्तते। ह्यः सिंहप्रासादे उपविष्टेन समितेः उपवेशेन निर्धारितयोः मापदण्डस्य विधेश्च आधारे निर्धारित समय एव पुनर्निर्माणस्य अवशिष्टानि कार्याणि पूरयितुम् प्राधिकरणम् निर्दिष्टम् अस्ति। उपवेशेन राष्ट्रिय पुनर्निर्माण प्राधिकरणे प्राप्तानि दुःखानुवेदनानि यथाशीघ्रम् समाधातुमपि निर्देशनम् प्रदत्तमस्ति। तत्पूर्वम् उपवेशे प्राधिकरणस्य प्रमुख कार्यकारी अधिकृतः सुशील ग्यवाली अगदत् व्यय व्यवस्थापनस्य आधारे पुनर्निर्माणस्य कार्याणि तीव्ररूपेण अग्रे वर्धमानानि सन्ति। प्रमुख कार्यकारी अधिकृतः ग्यवाली रानीपोखरी स्थानस्य प्राक्तन मौलिकताम् संरक्ष्य अतिरिक्त सौन्दर्य प्रवर्धनत्वेन निर्माणम् विधीयमानम् वर्तते। आगामिनो वैशाख मासस्य द्वितीये दिवसे उद्घाटनत्वेन कार्याणि अग्रे वर्धापितानि च सन्तीति अबोधयत्। उपवेशे सांसदा खिमलाल भट्टराई, रामचन्द्र राई, रमेश प्रसाद यादवः, सुरेन्द्र राज पाण्डे, कोमल ओली च पुनर्निर्माणस्य कार्याणि सन्तोषजनकानि सन्त्यपि निर्धारित समय एव पुनर्निर्माणस्य अवशिष्टानाम् कार्याणाम् पूरणार्थम् प्राधिकरणेन सक्रियेण भाव्यमिति अभासन्त। संसदः सार्वजनिक लेखा समित्या सर्वकारेण प्रवेश्यमानस्य सुरक्षण मुद्रण यन्त्रस्य विषये अतिरिक्तम् अध्ययनम् अनुसन्धानञ्च विधीयते। गतदिने सिंहप्रासादे उपविष्टे समितेः उपवेशे सांसदाः सुरक्षण मुद्रण यन्त्रस्य स्वदेशे एव स्थापनम् उचितम् वर्तते, अनेन कार्येण च विपुलधनस्य विदेशगमनात् अवरोधनेऽपि अस्य प्राविधिक विषयस्य सत्त्वेन अतिरिक्तम् विमृश्य अग्रे वर्धयितुम् परामृशन्। सर्वकारेण पारपत्र राष्ट्रिय परिचय पत्रान्तर शुल्क सूचना चिन्ह धनादेश पत्र प्रवृत्तिनाम् सामग्रीणाम् उच्च सुरक्षायाम् स्वदेशे एव प्रकाशनेन विपुल धनस्य विदेश गमन रोदनस्य उद्देश्येन सुरक्षण मुद्रण यन्त्रम् प्रवेशयितुम् पूर्वकार्यम् विहितम् वर्तते। प्रतिनिधि सभायाः शिक्षा स्वास्थ्य समितौ हस्तकन्दुक क्रीडायै एव राष्ट्रिय क्रीडायाः मान्यताम् प्रदातुम् सहमतिः धृता वर्तते। क्रीडायाः विकासस्य सम्बन्धे व्यवस्थातुम् निर्मितम् विधेयकम् सूत्रगतम् विमृष्टुम् गतदिने सिंहप्रासादे उपविष्टेः समितेः उपवेशे सर्वकारस्य इच्छायाम् सत्यम् या कापि क्रीडा राष्ट्रिय क्रीडा निर्धारयितुम् शक्यते इति विकल्पेन सह सम्प्रति हस्तकन्दुक क्रीडायै एव राष्ट्रिय क्रीडायाः मान्यतायाः प्रदानस्य विषये सहमति धृतास्ति। उपवेशेन कस्याः अपि क्रीडा प्रतियोगितायाः आयोजने मद्यम् मादकजन्य पदार्थम् च प्रायोजकम् न स्थापयितुम् च सर्वसम्मतरूपेण निर्णीतम् वर्तते। प्रधानमन्त्रिणा केपी शर्मा ओलिना सांस्कृतिक संस्थान राष्ट्रिय नृत्यशालायाः नवनियुक्तम् अध्यक्षाय नवनियुक्ताय अध्यक्षाय प्रेमनाथ अधिकारिणे वर्धापनम् दत्त्वा संस्थानम् अतिरिक्तम् गतिशीलम् विधातुम् निर्दिष्टम् वर्तते। अध्यक्ष अधिकारी संस्थानाय प्रधानमन्त्रिणः स्तरात् प्राथमिकता प्रदत्तास्तीति हेतोः आत्मभिः समावयस्य रूपेण दायित्वम् स्वीकृतमिति अज्ञापयत्। सांस्कृतिक संस्थान राष्ट्रिय नृत्यशालायाः नवनियुक्तेन अध्यक्षेण अधिकारिणा महाप्रबन्धकेन अशोक प्यासी राई इत्यनेन च संस्थानम् अतिरिक्तम् व्यावसायिकम् गतिशीलम् च विधातुम् संकल्पः विहितोऽस्ति। तृतीय प्रदेशस्य प्रदेशसभोपवेशा प्रदेशस्य नामकरण सम्बद्धम् कार्यविधिम् पारितीकृत्य स्वपौषस्य त्रयोविंश दिवस विधाये स्थगितो भवत्। प्रदेशसभाया सभामुख सानुकुमार श्रेष्ठ स्वत्रयोविंश दिवसस्य दिवा त्रिवादनम् यावत् उपवेश स्थगितः इत्यवदत् इति समाचारः।